इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। नेताजी सुभाष चन्द्र बोस वर्यस्य अष्टाविंशत्युत्तरैकशततमे जयन्त्यवसरे अद्य पराक्रम दिवसः परिपाल्यते। त्रिदिवसात्मकस्य समारोहस्य आयोजनं संस्कृति मन्त्रालयद्वारा ओडिशायाः कटकनगरे समायोज्यते। यद्धि नेताजी वर्यस्य जन्मस्थानत्वेन प्रख्यातमस्ति, अत्रावसरे अनेके गणमान्यजनाः नेताजी वर्याय श्रद्धांजलिं समर्पयिष्यन्ति, अपि च ध्वजोत्तोलनमपि करिष्यन्ति। बारावती दुर्गे अस्य पराक्रम दिवसस्य समारोहस्य शुभारम्भः प्रधानमन्त्रिणः नरेन्द्र मोदिनः दृश्यांकन सन्देशेन सह भविता। तदनु नेताजी वर्यस्य जीवन यात्रा सम्बद्धानां पुस्तकानां चित्राणां प्रलेखानां च प्रदर्शनी निर्धारितास्ति। कार्यक्रमावधौ नेताजी वर्यस्य जीवनाधारितानि चलचित्राणि अपि प्रदर्शयिष्यन्ते। प्रयागराजे महाकुम्भ मेलापके आगम्यमानानां तीर्थयात्रिणां भक्तानाञ्च आवश्यक सौविध्येभ्यः चैटबॉट इति तन्त्रांशः समुद्घाटितः, येन हि भक्तानाम् अनुभवः इतोऽपि संवर्धिष्यति। चैटबॉट इत्येतस्य उपयोक्तारः एक किलोमीटर परिमिते खाद्योद्यान चिकित्सालयानां विषये समुचितां सूचना प्राप्स्यन्ति, अपि च मेलापक सम्बद्धानि मानचित्राणि तत्र समुपलब्धानि भविष्यन्ति। मेलापकाधिकारिणा विवेक चतुर्वेदिना सूचितं यत् केवलं QR कोड इति त्वरित संकेतान्वेक्षणं कृत्वा तीर्थयात्रिणः शीघ्रमेव स्वीय चलदूरभाषीय तन्त्रांशे महत्वपूर्णां सूचनां प्राप्तुं शक्नुवन्ति। महाराष्ट्र राज्ये ह्यः सायंकाले जलगांव जनपदस्य पचोरा तालुका इत्यत्र पुष्पक एक्सप्रेस इत्येतस्य रेलयानस्य कर्णाटक एक्सप्रेस इत्येतेन रेलयानेन सह जाते अभिहते तिस्रः महिलाः दशवर्षीयं बालकं च समेत्य द्वादश जनानां मृत्युः जाता। एतस्यां दुर्घटनायां अन्ये चतुर्दश जनाः व्रणिताः अभवन्। प्राप्त सूचनानुसारि व्रणितेषु कस्यापि स्थितिः गभीरा नैवास्ति। महाराष्ट्रस्य मुख्यमन्त्रिणा देवेन्द्र फडणवीसेन शोकः प्रकटितः तथा च मृतकानां परिजनेभ्यः 5 लक्ष रूप्यकाणां आर्थिक सहायता उद्घोषिता। राष्ट्रपतिः द्रौपदी मुर्मुः, प्रधानमन्त्री नरेन्द्र मोदी, केन्द्रीय गृहमन्त्री अमितशाहः च मृतकानां परिजनान् प्रति शोक संवेदनां प्रकटितवन्तः। गणतंत्र दिवसस्य पथसंचलनस्य सज्जता द्रुतगत्या प्रवर्धते। अद्य कर्तव्यपथे पूर्णगणाभ्यासः प्रदर्शयिष्यते। पूर्णगणाभ्यासः अयं प्रातः 10:30 समारप्स्यते, अथ च विजयचौक इत्येतस्मात् स्थलात् रक्तदुर्गं यावत् प्रचलिष्यति। सशस्त्रसेनानां मन्त्रालयानां राज्यानां केन्द्रशासितप्रदेशानां च अनेकानि रमणीयानि दृश्यानि तत्र प्रदर्श्यन्ते। कर्मचारी भविष्य निधि संघटनेन विगतवर्षे नवम्बर मासे 63,000+14,00,000 सदस्याः नियोजिताः। विगत अक्टूबर मासस्य अपेक्षया 9.07% यावत् वृद्धिः जाता। श्रम मन्त्रालयः अस्याः वृद्धेः श्रेयं वृत्त्यवसराणां वर्धमानेभ्यः अवसरेभ्यः प्रदत्तवान्। भारतीय ऋतुविज्ञान विभागेन आगामिनोः दिनद्वयोः पश्चिम हिमालयीय क्षेत्रे वृष्टेः हिमपातस्य च पूर्वानुमानः कृतः। पंजाब, हरियाणा, चण्डीगढ़, पश्चिमोत्तरप्रदेश, राजस्थान, पश्चिम मध्यप्रदेशेषु वृष्टेः संभावना प्रकटितास्ति। अद्य हिमाचलप्रदेशे, उत्तराखण्डे, पश्चिमोत्तरप्रदेशे च विद्युद्दोतनेन सह वृष्टेः संभावना विद्यते। क्रिकेट प्रतिस्पर्धायां ह्यः भारतेन ईडन गार्डन क्रीडांगणे इंग्लैण्डदलं 7-0 पराजितम्। इति वार्ताः।